ॐ गणेशाय नमः। ॐ ॐ वागर्ताविव सम्प्रक्तौ वागर्तप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ। ॐ ॐ एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ अस्मद्गुरुभ्यो नमः।
उत्तमं, धन्यवादः भगिनी।
धन्यवादः।
अद्य किं कुर्मः? कस्य इच्छा अस्ति अत्र अद्य? वदतु।
39 भगिनि,
पुटसङ्ख्या 39
अभ्यास अभ्यासपुस्तके 39।
अस्तु अस्तु, हा हा हा, अस्तु अस्तु अस्तु। एकं पुनःस्मरणार्थम् एकमेकं पृच्छामि, उत्तरं वदतु, तदनन्तरं 39 एकवारं पुनः सम्भाषणं पठामः।
अस्तु,
हा, अनुवादं करोतु, एकमेकं स्वीकृत्य, वाक्यं स्वीकृत्य अनुवादं करोतु। अस्तु, किं पेन् इस् इन् द बेग्, वदतु शैलजा भगिनी।
आं भगिनि,
वदतु भगिनि, अस्ति वा?
आं भगिनि, ऐ एम् जस्ट् फ्लिपिङ्ग् फोर् द वर्ड्स्, जस्ट् गिव् मी अ मिनिट् भगिनि, फ्यू सेकेण्ड्स्।
मनसि अस्ति वा न वा? सुधा भगिनी वदतु।
अङ्कनी स्यूते अस्ति।
अङ्कनी स्यूते अस्ति, उत्तमं। शैलजा भगिनी अग्रिमम्।
आं भगिनि,
द स्पून् इस् आन् द इन् द रूम्, वदतु।
चमसः कोष्टकेन अस्ति।
पुनः वदतु।
चमसः कोष्टके अस्ति।
तदेव, सुन्दरम्, उत्तमम्। अस्तु, सुधा भगिनी, राम् वेण्ट् फ्रोम् मैसूर् टु बेङ्गलोर्, वदतु।
राम् वेण्ट् फ्रोम् मैसूर् टु बेङ्गलोर्। रामः मैसूरुतः बेङ्गलूरु गतवान्।
बेङ्गलूरु बेङ्गलूरु गतवान् वा? पुनः
बेङ्गलूरुं गतवान्।
तदेव, सुन्दरं सुन्दरं, धन्यवादः। अस्तु, शैलजा भगिनी, प्लीज़ स्पीक् अ लिटल् लौडर्।
आं भगिनि,
शैलजा भगिनी वदतु, प्लीज़ स्पीक् अ लिटल् लौडर्।
ओ ओके, ऐ थाट् यु आर् आस्किङ्ग् मी टु स्पीक्।
वदतु।
कृपया उच्चैः वदतु.
तदेव सुन्दरं. कृपया उच्चैः वदतु. सुधा भगिनी, प्लीज शो मी अ रेड सारी.
प्लीज शो मी अ रेड सारी. कृपया कृपया एक कृपया एकं शाट् रेड् सारि रक्तवर्ण शाटिकां रक्तवर्णशाटिका मां मां दर्शयतु.
पुनः वदतु, पुनः वदतु.
कृपया एकं रक्तवर्ण शाटिकां मां दर्शयतु.
तदेव अत्र विशेषणविशेष्यभावः अस्ति वा वाक्ये?
एक रेड् शाटिका, एकं रक्त,
एकं लिङ्गं किम्?
एका रक्तवर्णशाटिका.
तदेव सुन्दरम्. एका शाटिका,
एका शाटिका दर्शयतु.
दर्शयतु. अस्तु. इट् इस् 6:45. शैलजा भगिनी,
आं भगिनि, एतत् 6:45 भगिनि. पादोन सप्तवादनम् अस्ति.
पुनः वदतु.
पादोन इदानीं पादोन सप्तवादनम् अस्ति.
अस्ति, तदेव सुन्दरं, तदेव उत्तमम्. अस्तु सुधा भगिनी, आफ्टर् 48 कम् 49 वदतु.
आफ्टर् 48 कम् 49.
अष्टचत्वारिंशत्
अग्रिमं नव चत्वारिंशत् आयाति.
अष्टचत्वारिंशत् पश्चात्
नवचत्वारिंशत् आयाति.
उत्तमम्, उत्तमम्. अस्तु सुधा भगिनी, King Dasharath was Raja of Ayodhya. Vadatu.
Kripya punah vadatu bhagini. King Dasharath was?
Dasharath was King of Ayodhya.
Rajah Dasharathah Ayodhyasya Rajah asti. Ayodhyasya Rajasya
Kidrusha padam
Rajah asti.
Kidrusha padam
Ayodhya pullinga shabdah ekavachanam padam asti.
Katham janimah?
Sochiyati Ayodhya. One minute, but I'm checking. Ayodhya is a Strilinga Shabda Hasti Bhagini. Ayodhya. So, Sashti Vibhakti for Strilinga Shabda is a Ayodhyayaha Rajaha Dasharataha Asti.
Raja ki desha padam.
Raja.
Lingam kim. Vibhakti kim.
Showing up in spoken Sanskrit, Pani. Bear with me, please, 1 minute.
Now, Shabda Manjariyam Pashyatu, Sudha Bhagini, Sayam Karatu Bhagini, Kidrusha Padam.
Raja iti Pumlinga Shabda Masti.
Kidrusha Padam.
Akaranta Pumlinga.
Akaranta Pumlinga.
Raja.
Kim?
Raja. Akaranta.
Akaranta. Rama Vatva.
Raja.
Na, Rama Vatna Asti Bhagini.
Raja iti.
Strilinga Shabda Maam Bhagini.
Na, Strilinga Api Nasti. Kidrusha Padam. Katham Jani Maha.
It's not showing up in spoken Sanskrit. When I type in
Raj iti Jakaranta Pumlinga Asti.
Na Bhagini.
Raja is Napumsakalinga Padam Bhagini.
Napumsakalingam va. Katham Janima.
Spoken Sanskrit Madhye. Raja is Napumsakalinga Padam. Is this king?
Aduna Kim Kurma Shabda Manjaryam.
Shabda Manjaryam Raj Jakaranta Pumlingaha Ekamasti. Sankhya Dvatrimshat.
Dvatrimshat. Kintu Tattu Tu Rat.
Raj Rat Asti Pratama Purusha.
Rat Dasharathah, Tattu Ekam Bhinna Padam Asti, Bhinna Rupam Eva. Adhuna Shat Trimshat Pashyatu Shabda Manjaryam. Shat Trimshat Puta Sankhya Pashyatu Sarve. Upari Bhage Kim Dattam. Kailaja Bhagini Vadatu.
Aam Bhagini. Shat Trimshat va Bhagini?
Shat Trimshat.
Shat
I don't have that page, Bhagini.
Yeah, even I also couldn't find it.
Shat, Trimshat, Pancha Trimshat, Shat Trimshat.
Shat Trimshat, I don't seem to have it.
But, Kimartham, Bhagini?
I have Sarvanama Padani Santi.
No. Sarvanama Nasi, Halanta Pumlingam.
Halanta Pumlingam, Dakaranta Pumlinga, Suhrud Shabdake Bad, I only have Nakaranta.
Tadeva Patatu Ekavaram Bhagini. Ekavaram Patatu. Sudha Bhagini, Patatu.
Haan Bhagini. युवन् शब्दः वा
शब्दः कः
सुहृद् अस्ति अपि च
सुहृद् तु न अग्रिमं किम्
अग्रिमं युवन् अस्ति इति अस्ति युवन्
राजन्
युष्मत् अस्ति दकारः
राजन् अस्ति वा न वा
राजन् नास्ति
अस्तु अधुना वाट्साप् मध्ये पश्यतु शब्दमञ्जर्यां षड्त्रिंशत् पठतु एकवारं
आम् भगिनि राजा राजानौ राजानः
भगिनि आरम्भतः भवत् भगिनि पठतु नकारान्तः
पुल्लिङ्गः राजन् शब्दः प्रथमाविभक्ति राजा राजानौ राजानः हे राजन् हे राजानौ हे राजानः राजानं राजानौ राज्ञः राज्ञा राजभ्यां राजभिः राज्ञे राजभ्यां राजभ्यः राज्ञः राजभ्यां राजभ्यः राज्ञः राज्ञोः राज्ञां राज्ञी राजनी राज्ञोः राजसु
अधुना वाक्यं वदतु
अयोध्यस्य
चिन्तयतु भगिनि एकवारं चिन्तयतु कीदृशपदम् अधुना एव भवति सम्यक् उक्तवती
राजा दशरथः नो राजा दशरथः अयोध्यस्य राजाः अयोध्यस्य राजा
अयोध्यस्य भगिनि
भगिनि अयोध्यस्य अयोध्या इस् षष्ठी विभक्ति अयोध्यायां स्त्रीलिङ्गशब्दः अस्ति चेत् अयोध्यायाः
अयोध्यायाः
राजा दशरथः अयोध्यायाः राजा अस्ति
अस्ति तु न किन्तु वाज्
आं भगिनि स्म इट् इस् आसन्
आसन् वा सुधा भगिनि वदतु
आसीत् भगिनि सोरि आसीत् सोरि भगिनि इट् इस् प्रथमपुरुष एकवचनशब्दः
आसीत्
भूतकालः
सम्पूर्णवाक्यं पुनः वदतु
आं भगिनि राजा दशरथः अयोध्यायाः राजा आसीत्
तदेव राजा कीदृशपदम्
राजा इस् नपुंसकलिङ्गपदम्
अस्ति वा
एकवचन प्रथमाविभक्ति एकवचन
कथं जानीमः
राजा
कथं जानीमः
स्पोकेन् संस्कृत मध्ये
भगिनी अधुना एव अहं प्रेषयामि कीदृश
राजन् इस् नकारान्त पुल्लिङ्ग राजन् शब्दवत् राजा प्रथमविभक्ति एकवचनरूपम् अस्ति द रूट् फार्म् रूट् वर्ड् इस् प्रातिपदकम् इस् राजन्
लिङ्गं किं
नपुंसकलिङ्ग ऐ सारि नकारान्त पुल्लिङ्गः सारि भगिनि नकारान्त पुल्लिङ्गः I was always thinking because I typed in spoken Sanskrit that that was there in my mind like you know Magini I'm not even though I'm reading it out I'm not able to you know retain the what you know that
uttamam
so it is nakaranta pullinga shabda rajan shabdavat raja is pullinga shabdah prathama vibhakti ekvachana shabda asti then why it is there as napunsaka linga padam Magini here raja in spoken Sanskrit?
तत्तु अहं न जानामि किन्तु एकम् अन्यरूपम् अस्ति वा एकं प्रश्न उदेति अधुना एक
रूट् इति प्रातिपदिकं नास्ति भगिनि
रूपं पुनः वदतु
नपुंसकलिङ्गपदं वा भगिनि
न रूपं वदतु पुनः किं दत्तं स्पोकन् संस्कृत मध्ये
राजा इस् ओ मै गाड् सारी भगिनि इट् इस् अगेन् कमिङ्ग् नो मास्क्लिन् ओन्लि पुल्लिङ्ग शब्दवत् भगिनि
तदेव भगिनि तदेव नकारान्त पुंलिङ्ग शब्दः नकारान्त राजन्
प्रातिपदिकशब्दवत्
सुधा भगिनि मूर्धन् मूर्धन् इति पदस्य सर्वाणि रूपाणि वदतु
मूर्धन वा भगिनि
मूर्धन्
मूर्धन् मूर्धा मूर्धानौ मूर्धानान् न मूर्धाना मूर्धानः हे मूर्धन् हे मूर्धानौ हे मूर्धानः मूर्धानम् मूर्धानौ मूर्धानज्ञः मूर्धन्यः मूर्ध्ञः मूर्ध्ञा मूर्धभ्यां मूर्धभ्यां मूर्धभिः मूर्ध्ने मूर्धभ्यां मूर्धभ्यः मूर्ध्ञः मूर्धभ्यां मूर्धभ्यः मूर्ध्ञः मूर्धज्ञः
पुनः वदतु
मूर्ध्ञः सारि मूर्ध्ञः मूर्ध्न्योः मूर्ध्ञां मूर्ध्नि मूर्धनि मूर्ध्न्योः मूर्धसु
किञ्चित् क्लिष्ट जात किञ्चित् क्लिष्टजाता उत्तमं शैलजा भगिनी किं गरिमन् गरिमन् सर्वाणि रूपाणि वदतु
गरिमन्
कीदृशपदं प्रथम इति वदतु
राजन् शब्दवत् गरिमन् नकारान्त पुल्लिङ्गशब्दः अस्ति गरिमन् गरिमन् गरिजा
गरिजा वा
गरिमन् गरिमा सोरि भगिनि गरिमा गरिमानौ गरिमानः हे गरिमन् हे गरिमानौ हे गरिमानः गरिमानं गरिमानौ गार्मिः
पुनः वदतु
गर्माः द्वितीयविभक्ति बहुवचनशब्द
कथम् आयाति भगिनि
कर्मः राज्ञः इस् कर्मः
मह तु नास्ति राजः तु नास्ति राज्ञः अस्ति
राज्ञः
गरिम्नः
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 राज्ञः गरिम्नः गरिम्नः
गरिम्यः गरिम्यः
गरिम्नः मुन मकारान्त
न्या भगिनि
न न न ज योगः न इत्युक्ते ज्ञ किन्तु अत्र
गरिम्यः
मकारान्त योगः न
आम् भगिनि गरिम्नः
तदेव
गरिम्नः गरिम्ना गर्मि गर्मराजभ्यां गर्मभ्यां
गर्मभ्यां कथं भगिनि पुनः वदतु तृतीया
गर्मिभ्यां
पुनः वदतु तृतीया
गर्म्या गरिम्या राज्ञा राज्ञः गरिम्ना
भगिनि शृणोतु अन्तिम तु नकारान्त अस्ति गरिमन् किन्तु राजन् राज्ञा इति वदति तृतीय राजन् राज्ञा गरिमन्
गरिम्ना गर्मिभ्यां
गर्मि कथं रकार गर्मि इति भवति मि तु नास्ति एव न गरि
गरिभ्यां गरिभ्यां
न गरिभ्यां गरिमभ्यां
गरिमभ्याम्
एकवारं पश्यतु भगिनी राजन् न तु नकारान्त तु लोप जात तस्य स्थाने भ्याम् आयाति राज नकारान्त लोप जात अपगच्छति राज इति तिष्ठति राजयोगभ्यां राजभ्याम् अधुना किम् अभवत् गरिमन् गरिम गरिम आयाति गरिम योगभ्यां गरिमभ्याम्
आं भगिनि
अवदतु
गरिमि गरिम्ना गरिमि गरिमभ्यां गरिमिभिः
गरिमभिः
गरिमभिः
उत्तमं
गरिम्ने गरिमभ्यां गरिमभ्यः गरिम्ना गरिम्ना
कथम् आयाति गरिम्ना भगिनि
राज्ञः भगिनि
राज्ञः
गरिम्नः पञ्चमी विभक्ति एकवचनं
गरिम्नः गरिम्ना
क्षम्यतां गरिम्नः गर्मिभ्यां गरिमभ्यां
पुनः वदतु
गरिमभ्यां गरिमभ्यां गरिमभ्यः गरिम्नः गरिम्नोः this is raja, what is rajnyoho rajnyam bhagini? Aam bhagini. Garim naam, garmi,
no,
garmani,
bhagini, rajan, rajnyam, iti
bhavati. Ekavachanam rajni.
Na bhagini, bhagini, shunatu. Shashti bahu vachana rupam ekavara punavadatu.
Garim naho,
पुनः वदतु सम्यक् वदतु
गरिम्नः गरिम्नोः गरिम्नाम्
गरिम्नाम् उत्तमं सप्तमे
गर्मी गर्मिन् गर्मिन् गर्मणि
कथं भवे भगिनी पुनः वदतु सप्तमे राजन् राज्ञी भवति गरिमन्
गरिम् राज्ञी इस् गरिम् इस् गर्मी न भगिनी गर्मणि
गरिमणि
गरिमणि
पुनः पुनः कथं जानीमः पुनः पुनः वारं वारं उक्त्वा कथं राजन् राज्ञी गरिमन्
हे गरिमन् हे गरिम्नि गरिम्नि सोरि
सप्तमी
गरिम्नि
वारं वारम् उक्त्वा किं राजन् राज्ञी गरिमन् गरिम्नि इति वदतु
गरिम्नि
एकम् अन्यरूपं दत्तं
गर्मिणि
वा
Rajani is garmani va bhagini garmini rajni is
garno bhagini garno gari
garimani is rajni bhagini
rajni is kim
saptami vibhakti ekvachanam garimani गरिमणि
अग्रिमं
गरिम्नोः गरिमसु
उत्तमं किञ्चित् क्लिष्ट तु जात तदेव वयम् अभ्यासं
भगिनि
न अस्तु सुधा भगिनी अणिमन् अणिमन्
अणिमन् अणिमा अणिमानौ अणिमानः हे अणिमन् हे अणिमानौ हे अणिमानः अणिमाणम् अणिमाणम्
णत्वं भवति तत्र किमर्थम्
नकार एव भवति शब्दः
न वदतु पुनः रूपम्
अणिमाणं
कथम् अभवत् भगिनि तृतीयरूपं राजन् राजा द्वितीय राजन् राजानम् अणिमन्
अणिमानम् अणिमानम्
णत्वं तु न अस्ति तत्र किमर्थम्
रकार नास्ति
निमित्तं नास्ति
निमित्तं नास्ति
निमित्तं किं रेफा अपि च मूर्धषकार द्वयोः एव नास्ति अत्र इत्युक्ते निमित्तं नास्ति चेत् णत्वं तु न अभवत् पुनः वदतु रूपं द्वितीयरूपं
शब्दः
न पुनः पुनः वारं वारं वदतु राजन् राज्ञः
अणिमानम् अणिमान्यः
नो अणि अणिमाननु अणिमन्
अणिमन् अणिमन् अणि अणिमन्नः
पुनः पुनः वदतु
राजन् राज्ञः तृतीयविभक्ति अणिमा अणिमभिः अणिम्ने अणिमभ्याम् अणिमभ्यः अणिम्नः अणिमभ्याम् अणिमभ्यः अणिम्नः अणिम्नोः अणिम्नाम् अणिम्नि
पुनः वदतु
राज्ञि अणिमसु
तदेव अणिमसु उत्तमम् एकवारं पुनः वदतु शैलजा भगिनी तक्षन्
आं भगिनि तक्षन् तक्षानः तक्ष्यः
कथम् आयाति भगिनी
तक्षः सोरि भगिनी
तक्षः अपि नास्ति रूपं किम् रूपं किं पुनः पुनः
राज्ञः सो इट् मोडिफैस् इन् टु वाट् वर्णः भगिनी क्षा changes into
ha ksha ityukte kim varna dvayam kim
taksha ksha
भगिनी वदतु. एकं संयुक्तवर्णः अस्ति. संयुक्तवर्ण तु न संयुक्त अक्षर अस्ति. वर्णद्वयम् अस्ति तत्र. ते के एकवारं पुनः वदतु. वर्णद्वयम् अस्ति क्ष अक्षरे. वर्णद्वयम् अस्ति. ते के
पुनः
चिन्तयतु. क्ष ककार अपि
ककार शाक्षकार.
शकार किं कीदृश शकार?
ख प्लस् श मूर्धन्यस्य श.
मूर्धन्यस्य
ऊष्मांश.
मूर्धशकार ककार अपि मूर्धशकार इत्युक्ते क्ष. अधुना तु क्ष एकं संयुक्ताक्षर अस्ति. क्ष अस्ति चेत् किम् अभवत्? अन्तिमवर्णः कः? नकार तु अपगच्छति तक्षण. नकार तु अपगच्छति. तदनन्तरम् अन्तिमवर्णः कः? तक्षण् प्रातिपदिकमस्ति. तक्षण् तक्षण् अधुना तु नकार अन्तिमनकार तु यथा राजन् राजा भवति तक्षण् किं भवति?
तक्षा भवति.
तक्षा अन्तिमवर्णः कः?
अकारान्त. अकारान्त
तस्य पूर्वं
क्ष.
न क्ष तु वर्णः कः भगिनि?
अकारान्त भगिनि.
का तु नास्ति. का तु नास्ति. अन्तिम किम्? आ. तस्य पूर्वं मूर्धशकार.
मूर्धशकार
ष
प्लस् आ ष.
षकार प्लस् दीर्घ आ. क्षा तक्षा. प्रथमविभक्ति एकवचनरूपं किं? तक्षा.
तक्षा
तक्षा.
राज्ञः
तु नास्ति अत्र भगिनि. राजा तक्षा. तदनन्तरं प्रथम द्विवचने
ऐ कम्प्लीटेड् प्रथमविभक्ति भगिनि. ऐ स्टक् अट् द्वितीयविभक्ति बहुवचनं.
पुनः वदतु किमर्थं? वदतु. वर्णज्ञानं आवश्यकम्.
आं भगिनि.
वर्णज्ञानं तु आवश्यकमेव. क्ष इत्युक्ते किं? ककार अपि मूर्धषकार अस्ति चेत् संयुक्ताक्षर क्ष इति. अधुना तक्षण् तक्षा द्विवचने.
तक्षा तक्षा इस् स्त्रीलिङ्ग् शब्दवत् भगिनि?
न न न पुल्लिङ्ग्. यथा राजन् यथा राजन् अस्ति तथा तक्षण् अस्ति भगिनि. पुंलिङ्ग नकारान्तमेव.
तक्षा
वाट्साप् मध्ये पश्यतु. अन्ते दत्तं सर्वाणि.
तक्षा तक्षानौ तक्षानः. हे तक्षन् हे तक्षानौ हे तक्षानः. तक्षानं तक्षानौ तक्षः. ऐ डोण्ट् अण्डर्स्टाण्ड् लैक् यु नो तक्ष is like to what varnam it changes into ksha.
Atuna kim abhavat dvitiya bahuvachana rupam kim? Rajan
rajyah. प्राज्ञः
ज्ञ इति अपि एकं संयुक्ताक्षर अस्ति ज्ञ वर्णद्वयं वर्णद्वयं तौ कौ वर्णद्वयं तौ कौ
सुतश वा
न भगिनी उत्तरं वदतु ज्ञ एकं संयुक्ताक्षर अस्ति वर्णद्वयं स्तः तौ कौ वर्णद्वयम् स्तः
प्लस्
न ज प्लस् अ तु न संयुक्त अक्षर अस्ति भगिनि
संयुक्त अक्षर अस्ति चेत् आं भगिनि
जकार
जकार प्लस् अकार
न ज्ञ ज्ञ
ज्ञ
संयुक्त अक्षर अस्ति सुधा भगिनी वदतु
ज्ञ क सो इट् इस् तकः तकः वा भगिनि
न न न ज्ञ ज्ञ इति संयुक्ताक्षर अस्ति वर्णद्वयं स्तः तौ कौ सुधा भगिनी वदतु
आं भगिनि जकार ण्यकार
न न जकार अपि
ण्यकार
न नकार
नकार नकार न
ज योगः न इति ज ज योगः न ज्ञ भवति
सो इट् इस् तकः
रूपद्वयं स्तः तत्र ज्ञ अपि अस्ति के के पुरुषः के के मनुषाः ज्ञ इति वदति ज्ञान ज्ञान शृणोति वा ज्ञान तु समानरूपम् इत्युक्ते साधारणरूपं किं ज्ञान किन्तु केषानां मनुष्याणां किं वदन्ति ज्ञ ज्ञान अज्ञान अधुना किं राजन् राज्ञः इति भवति तक्षन् किं भवति
तकः भवति वा
पुनः वदतु
तक्षन् तकः
तकः कथं तक्ष्णः
का योगः शा इस् क्षा संयुक्ताक्षरस अस्ति चेत् कश का वर्णः अस्ति वा भगिनि तकः
क योगः
श मूर्
अन्तिम तु षा
च संयुक्त अक्षरं भवति
षकारयोगः किं नकारः
नकार
तक्ष्णः तक्ष्णः इत्युक्ते किं तकारयोग अकारयोग ककारयोग षकारयोग नकारयोग अकारयोग विसर्ग पुनः वदामि किम्
आं भगिनि
तकार योग अकार योग ककार योग षकार योग नकार योग अकार योगः विसर्गः ते सर्वे वर्णाः सन्ति तत्र तक्ष्णः
तक्ष्णः तक्ष्णः
अधुना वदतु णत्वं भवति वा
तक्ष्ण नत्वं न भगिनि नत्वं न भवति तक्ष्णः
किमर्थम्
मूर्धन्यस्य शकार द्वयं नास्ति ऐ एम् नाट् श्योर् भगिनि
सुधा भगिनि
नकार भवति भगिनि मूर्धन्य शकार निमित्तम् अस्ति
तस्य तस्य पश्चात् मूर्धन्य शकार अस्ति तस्य पश्चात्
अकार अस्ति
न कार अस्ति अकार तु अस्ति अकार नास्ति तत्र तक्ष्णः
अण नास्ति भगिनी नास्ति
न अस्ति प्रथम तु किं तकार अकार ककार मूर्धन्यषकार नकार न किम् अभवत् मूर्धषकार अस्ति तदनन्तरं नकार अस्ति
नकार अस्ति
अधुना णत्वं भवति वा न वा इति प्रश्न उदेति
णत्वं भवति भगिनि
भवति एव उत्तमं
षकार इति पश्चात् आयाति नकार मूर्धन्यषकार पश्चात् आयाति नकार
रसाभ्यां णो नः इति सूत्रमस्ति सूत्रं किं रसाभ्यां णो णो नः रसाभ्यां णो नः इति सूत्रं किं वदति यदि साक्षात् निमित्तम् अस्ति चेत् णत्वं नकार णत्वं भवति इत्युक्ते किं निमित्तं साक्षात् अस्ति साक्षात् इत्युक्ते किं मध्ये किमपि नास्ति निमित्तम् अस्ति अपि च स्थानी अस्ति द्वयोः मध्ये किमपि नास्ति ते साक्षात् सः ते साक्षात् सः इत्युक्ते किम् इन् बिट्वीन् बोत् आफ् देम् बिट्वीन् द कास् एण्ड् द इफेक्ट् देर् इस् नो अदर् वर्ण तदेव रसाभ्यां णो नः इति सूत्रं वदति तत्र अवगत
हां भगिनि
भगिनि शैलजा भगिनि अवगतं वा
नाट् शोर् भगिनि I'll listen to the recording again
इत्युक्ते किं निमित्तम् इत्युक्ते किं सुधा भगिनि
निमित्तम् इत्युक्ते कारणं द कास्
कारणं कास् वाट् कास् इस् णत्वं णत्वम् इत्युक्ते किं नकार बिकम् णकार किमर्थं यदि निमित्तम् अस्ति चेत् इस् द कास् इस् देर् द रैट् कारण इस् देर् वाट् इस् द रैट् कारण ऐदर् रेफ और्
मूर्धषकार
अस्ति चेत् then after either repha or murdha shakara nakara asti chet tat nakarasya parivartanam abhavat natvam ayati nakara ayati
aam bagini
tatam va sheshalaja bagini
aam bagini I got it
uttamam aduna vadatu takshnah
takshnah takshna तक्षभ्यां तक्षभिः तक्ष्णे तक्षभ्यां तक्षभ्यः तक्ष्ण्यः तक्ष्णः तक्ष्णः तक्षभ्यां तक्षव्यः तक्ष्णः
तक्ष्णः
तक्ष्णोः तक्ष्णम्
तक्ष्णम् न
तक्ष्णाम्
तक्ष्णाम्
तक्ष्णी तक्षा तक्षाणि
तक्ष्णोः
तक्ष्णी तक्षाणि तक्षणि तक्ष्णी तक्षणि
तक्षणि तक्षणि णत्वं भवति तक्षणि
आम् आं भगिनि तक्ष्णी तक्षणि तक्षणि तक्ष्णोः तक्षसु
तदेव
सूत्रम् इति एकः प्रश्नः रसाभ्यां नो णः इति वा नो णः
नकार
नकार भवति
भवति एव तदेव वदति
पुनः एकवारं कृपया वदति वा भगिनि मित्रं सूत्रं
रसाभ्यां नो नः
नो नः
आं भगिनि वदतु
रसाभ्यां नो नः
तदेव रसाभ्यां नो नः
नो नः
किमर्थं मध्ये यदि किमपि वर्णः नास्ति मध्ये किं निमित्तम् अपि च नकार मध्ये किमपि नास्ति चेत् सूत्रं किं रसाभ्यां नो नः इति यदि मध्ये किमपि अस्ति चेत् तत् सूत्रं तु नास्ति भिन्नसूत्रम् आयाति तत्र अस्तु अधुना तु रसाभ्यां नो नः इति वारं वारम् उक्त्वा किञ्चित् किञ्चित् आयाति अस्तु
आं भगिनि
पुनः वदतु प्रथम तक्षा
वन् मिनिट् भगिनि तक्षानौ तक्षानः हे तक्षानः तक्षणः तक्षणौ तक्षणः तक्षणे तक्षभ्यां तक्षभ्यः तक्षणः तक्षणोः तक्षणां तक्ष्णी तक्षणि तक्षणोः तक्षसु
उत्तमम् अधुना तु सम्यक् एव सुन्दरम् अस्तु अधुना किं कुर्मः सम्भाषणम् एकवारं पठामः पुटसङ्ख्या 39 वा हा पठतु एकमेकं वाक्यं पठतु सुधा भगिनि
एतत् सम्भाषणं पठतु रङ्गनाथ ह्यः भवान् कुत्र आसीत्
वदतु शैलजा भगिनी अग्रिमं
पठामि वा भगिनि
एकं वाक्यं पठतु
अहं मित्रस्य गृहे आसम्
तत्र कः विशेषः आसीत्
मित्रस्य जन्मदिनम् आसीत्
तत्र जयरामः अनन्तः रामकृष्णः इत्यादयः आसन् वा
आम् सर्वे अपि आसन्
भवतः के तत्र गतवन्तः
वयं सर्वे अपि गतवन्तः आस्म
रूपं किं रूपाणि कानि अस्ति तः सन्ति अस्ति सन्ति अस्मि स्मः आसीत् आसन् आसम् आस्म सम्भाषणम्
अवगतम्
सरलमेव अस्तु अद्य अहं किञ्चित् शीघ्रम् अधुना एव अहं तु विरमामः भगिनी क्षम्यताम्
आं भगिनि
किञ्चित् कार्यम् अस्ति. उत्तमं.
How was the stay going on, Bhagini?
उत्तमं भगिनि, उत्तमं, धन्यवादः. अयं सप्ताहे तु मम भगिन्याः अनुजः विवाहः.
नैस् भगिनि.
गतसप्ताहे तु किञ्चित् मम पितृव्यः अन्तिम किम् अन्तिम.
सो सोरि टु हियर् दट् भगिनि.
धन्यवादः. किन्तु किं कृष्ण किं किं भगवद्गीतायां वदति किं ये ये जन्म स्वीकुर्वन्तः ते तु मरणं तु आवश्यकमेव. तदेव
पुनः पुनरपि मरणं पुनरपि जननं.
तत्तु सत्यमेव.
Bhagini, is it normal death or is there any underlying the health issues there?
No, normal. 83 years old, Bhagini.
Okay, Bhagini.
Happy normal in the sense, my Mausi ji, his wife died 3 months ago, so heartbroken.
Oh, wow.
Yeah,
you were
telling that, Bhagini, when your mother passed away, after few months, she also passed away.
Two sisters passed. My mother started, then my Mausi went, now her husband went.
And you were telling it right, like, you know, your father and him are like, you know, brothers, and your mother and her sister, they both married, both sisters married.
So sisters are co-sisters. Sisters are co-sisters, Bhagini?
Bhagini. Real sisters are co-sisters.
Wow.
Very, very close. Double relation, no? We grew up together. Very, very close. Very nice. But 83, you know, he had a very good life. So, good death also. We celebrated in some sense. It was hard, but it was a celebration, no? He was a wonderful man. He did a lot. He was a very, very senior surgeon in the army. He got some national award also for surgery work in, you know, under difficult, challenging situations. Good, everything good. Then Mausi ji died, heartbroken, he also went. It's all good. It's all good. It's sad for us, but it's all good, no?
Actually, people who have passed away, they are all, you know, lucky, Bhagini, but and who were left behind are the ones, you know.
Yet we are very afraid to die, and we are very sorrowful when... See, this is the enigma of humanity. What to do?
No satisfaction, no matter what.
Whatever. Antim part, Shanti part.
Come back.
Sarve bhavantu sukhinah. Sarve bhavantu sukhinah. Sarve
सर्वे सन्तु
निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु ॐ शान्ति शान्तिः श्रीगुरुभ्यो नमः हरिः ॐ सर्वं श्रीकृष्णार्पणमस्तु.
उत्तमं. धन्यवादः भगिनी. नमस्कारः.
धन्यवादः भगिनी. सो देर् इस् नो क्लास् नेक्स्ट् वीक्, नो भगिनि, ट्यूस्डे अण्ड् वेन्स्डे.
I'll be traveling again because next week I fly back, I think.
Oh, your flight is next week, Bhagini.
My flight is the 29th. I'll reach Kansas as per plan. I'm in central India, then I'm traveling tomorrow, then coming 3-4 days I'm traveling, then back to Delhi, then, you know.
Chinta mastu, Bhagini, that's fine, completely fine.
Right now you're in Bhopal, Bhagini?
In Bhopal.
Bhopal, okay.
My Bua's house, this is my Bua's.
Oh, okay. धन्यवादः
हेव् ए सेफ् ट्रावेल् अण्ड् हेपि जर्नि भगिनि
धन्यवादः शैलजा भगिनि
धन्यवादः भगिनि धन्यवादः सुधा भगिनि
धन्यवादः
पुनर्मिलामः भगिनि.
Oh, my God.